ततो युद्ध परिश्रान्तम् समरे चिन्तया स्थितम् रावणम् जाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् उपागम्याब्रवीद्रामम् अगस्त्यो भगवान् ऋषिः राम राम महाबाहो शृणु गुह्यं सनातनम् येन सर्वा नरीन् वत्स समरे विजयिष्यसि आदित्य हृदयं पुण्यं सर्वशत्रु विनाशनम् जयावहं जपे नित्यम् अक्षय्यम्
सर्वमङ्गलमाङ्गल्यम् सर्वपापप्रणाशनम् चिन्ताशोकप्रशमनम् आयुर्वर्धनमुत्तमम्
रश्मिमन्तम् समुद्यन्तम् देवासुरनमस्कृतम् पूजयस्व विवस्वन्तम् भास्करम् भुवनेश्वरम् सर्वदेवात्मको येषः तेजस्वी रश्मिभावनः येष देवासुरगणान् लोकान् पाति गभस्तिभिः येष ब्रह्मा च विष्णु च शिवस्कन्द प्रजापतिः महेन्द्रो हरद कालो यमस्तोमोऽभ्यपां पतिः पितरो
सविता सूर्य खग पूषा गभस्तिमान् सुवर्ण सदशोभानु हिरण्यरेता दिवाकरः
हरिदश्वः सहस्रार्चिः सप्त सप्तिर्मरीचिमान् तिमिरोन्मन्थन शम्भु स्वष्टा मार्ताण्ड अंशुमान् हिरण्यगर्भः शिशिर तपनो भास्करो रविः अग्निगर्भोदिते पुत्रः शङ्ख शिशिरनाशनः व्योमनाथस्तमो भेदी ऋग्यजुस्तामपारगः घनवृष्टि प्रपां मित्रो विद्यवीथि प्लवङ्गमः आतपे मण्डलिवृत्युः पिङ्गल सर्वतापनः कविर्विश्वो महातेज रक्त सर्वभवोद्भवः
नक्षत्रग्रहताराणा मदिपो विश्वभावनः तेजसामपि तेजस्वी द्वादशात्मन्नमोऽस्तु ते
नमः पूर्वाय गिरये पश्चिमायाद्रये नमः ज्योतिर्गणानां पतये दिनाधिपतये नमः जयाय जयभद्राय हर्यश्वाय नमो नमः नमो नमः सहस्रांशो आदित्याय नमो नमः नम उग्राय वीराय तारंगाय नमो नमः नम पद्मप्रबोधाय मार्तांडाय
नमः ज्ञाय हिमज्ञाय शत्रुघ्नायामितात्मने कृतघ्नज्ञान देवाय ज्योतिषां पतये नमः।
कराभाय वनये विश्वकर्मणे नमस्तमोऽभिनिज्ञाय रुचये लोकसाक्षिणे नाशयत्येष वै भूतम् तदैव सृजति प्रभुः पायत्येष तपत्येष स्पर्शत्येष गभस्थितिः येष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः येष एवाग्निहोत्रम् च फलम् चैवाग्निहोत्रिणाम् वेदाश्च क्रतवश्चैव क्रतूनाम् फलमेव च यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः।
येन मापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च इति यन्पुरुषः कश्चिन् नावसीदति राघव।
पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् एतत्त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि। अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि। एवमुक्त्वा तदागस्त्यो जगाम च यथागतम्। एतच्छ्रुत्वा महातेजा नष्टशोको भवत्तदा धारयामास सुप्रीतो राघव प्रयतात्मवान्। आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान्। त्रिराशम्य शुचि भूत्वा धनुरादाय वीर्यवान्।
रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागतम्। सर्वयत्नेन महता वधे तस्य धृतोऽभवत्।
अथ रविरवद निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्ट्यमानः निशिचरपते समक्षं मध्यगतो वचस्त्वरेति।